अञ्जन्धित्वामद्धरेते भजन्तो वनस्पते मधुनादैव्येन यदोर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वाक्षजो माधुरस्या उपस्थे समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्मवन्वानो अजरम् सुवीरम् आरे अस्मदमतिम् बाधमान उच्छ्रजस्व महते सौभगाय उच्छ्रजस्व वनस्पते वर्ष्मन् पृथिव्या अधि सुमिते मीयमानो वर्चो अधा यज्ञवाहसे युवा सुवासाः परिवेत आघात्स उश्रेजान् भवति जायमानः तन्धीरा सः क्रमय उन्नयन्ति स्वाध्यो मनसा ते भजन्ताः जातो जायते सुदिनत्वे अह्नाम् समर्य आविदधे वर्धमानः पुनन्ति धीरा अपसो मनीषादे भजा विप्र उदियर्ति वाचम् यान्वो नरो दे भजन्तो निमिम्युर्वनस्पते स्वधिदर्वा ततक्ष ते देवासस्वरवस्तस्थिवांसः प्रजापदस्मे दिधिषन्तु रत्नम् ये वृक्नासो अधिक्षमि निमितासो यतसृजः तेनो अव्यन्तु वार्यम् देवत्राक्षेत्रसाधसः आदित्या रुद्रावसवः सुनीथाद्या वाक्षमा पृथिवी अन्तरिक्षम् सजोषसो जज्ञमवन्तु देवा ऊर्ध्वम् गृह्णन्वध्वरस्य केतुम् हंसा इव श्रेणिषो यता नाः शुक्रावसा नास्वरवो न आगोह उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथाः शृङ्गाणीपेच्छृङ्गिणाम् सन्ददृश्रेतशालवन्तस्वरवः पृथिव्याम् वाघद्भिर्वाविहवे श्रोषमाणा अस्माम् अवन्तव्रतनाज्येष वनस्पते शतवल्षो विरोह सहस्रवल्षापि भजम् रुहेम यन्त्वामजम् स्वधितस्तेजमानः प्रणिनाय महते सौभगाय